प्रथम स्कंध अथ पंचमोध्याय भगवान के यश कीर्तन की महिमा और देवर्षि नारद जी का पूर्व चरित्र। सुत उवाच अथ तम सुखमासीन उपासीन बृहत्सव देवर्षि प्राह विप्रर्षि वीणा पाणी स्मयन्निव। नारद उवाच पाराश्चर्य महाभाग भवतः कचिदात्मना परितुष्यति शरीर आत्मा मानस एववा जिज्ञासितं सुसंपन्नमपि ते महदद्भुतं कृतवान् भारतं यस्त्वं सर्वार्थ परिबृंहितं। जिज्ञासितमधीतं च यत्तद्ब्रह्म सनातनं अथापि शोचस्यात्मानम् अकृतार्थैव प्रभो। व्यास उवाच अस्तेव मे सर्वमिदं त्वयोक्तं तथापि नात्मा परितुष्यते मे तन्मूलमव्यक्तमगाधबोधं पृच्छामहे त्वात्मभवात्मभूतम्। स वै भवान् वेद समस्तगुह्यम् उपासितो यत्पुरुषः पुराणः परावरेशो मनसैव विश्वं सृजत्तवत्यत्ति गुणैरसंगः। त्वं पर्यटन्नर्कैव त्रिलोकीम् अन्तश्चरो वायुरिवात्मसाक्षी परावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनमलं विचक्ष्व। श्रीनारद उवाच भवतानुदित प्रायं यशो भगवतो मलं जिनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलं। यथा धर्मादयश्चार्था मुनिवर्जानुकीर्तितः न तथा वासुदेवस्य महिमा यनुवर्णितः। न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हि चेत्। तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा निर्मन्तु शिक्षया। तद्वाग्विसर्गो जनताघ विप्लवो यस्मिन् प्रतिश्लोकमबध्यवत्यपि नामान्यनं तस्य यशोऽङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः। नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम्। कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम्। अथो महाभाग भवान् मोघदृक् शुचिश्रवः सत्यरतो धृतव्रतः कुरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम्। ततोऽन्यथा किञ्चन यद्विवक्षतः पृथग्दृशस्तत्कृतरूपनामभिः न कुत्रचित् क्वापि च दुःस्थिता मतिर्लभेत वाताहत नरिवास्पदम्। जुगुप्सितं धर्मकृतेऽनुशासतः स्वभावरक्तस्य महान् व्यतिक्रमः। यद्वाक्यतो धर्म इति इतरस्थितो न मन्यते तस्य निवारणं जनः। विचक्षणस्यार्हति वेदितुं विभोरनन्तपारस्य निवृत्तितः सुखम्। प्रवर्तमानस्य गुणैरनात्मनस्ततो भवान् दर्शय चेष्टितं विभोः। त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर् भजन् पक्वोऽथ पतेत्ततो यदि यत्र क्व वा भद्रमभूदमुष्य किं को वार्थयाप्तो अभजतां स्वधर्मतः। तस्यैव हेतोः प्रजतेत को विदो न लभ्यते यद्भ्रमतामुपर्यधः। तल्लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररम्भसा। न वै जनो जातु कथञ्चनाव्रजेन्मुकुन्द सेव्यन्वदङ्गसंश्रुतिम्। स्मरन्मुकुन्दाङ्घ्रिपगूहनं पुनर् विहातुमिच्छेन्नरसग्रहो जतः इदं हि विश्वं भगवान्निवेतरो जतो जगत्स्थाननिरोधसम्भवः तद्धि स्वयं वेद भवांस्तथापि वै प्रादेशमात्रं भवतः प्रदर्शितम् त्वमात्मनात्मानमवेह्यमोघदृक् परस्य पुंसः परमात्मनः कलाम् अजम् प्रजातम् जगतः शिवाय तन्महानुभावाभिधयोऽधिगण्यताम् इदम् हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सुक्तस्य च बुद्धिदत्तयः अविच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम् अहम् पुरातीतभवे भवम् मुने दास्यास्तु कस्याश्चन वेदवादिनाम् निरूपितो बालक एव योगिनाम् शुश्रूषणे प्रावृशनिर्विवीक्षताम् ते मह्यपेताखिल चापलर्भके दान्ते धृतक्रीडनकेऽनुवर्तिनि चक्रुः कृपाम् यद्यपि तुल्यदर्शनः शुश्रूषमाणे मुनयल्पभाषिणी उच्छिष्टलेपाननुमोदितो द्विजहि सकृष्म भुञ्जे तदपास्तकिल्विषः एवम् प्रवृत्तस्य विशुद्धचेतसस्तद्धर्म एवात्मरुचिः प्रजायते तत्रान्वहम् कृष्णकथाः प्रगायताम् अनुग्रहेणाशृणमम् मनोहरः ताः श्रद्धया मेऽनुपदम् विष्णवतः प्रिये सर्वस्यङ्गममाभवद्रुचिः तस्मिंस्तदा लब्धरुचेर्महामुने प्रिये सर्वस्य स्खलिता मतिर्मम जजाहमेतत्सदसत्स्वमायया पश्ये मयि ब्रह्मणि कल्पितम् परे इत्थम् शरत्प्रावृशिका ऋतुर्हरेर्विशृण्वतो मेऽनुसवम् यशोमलम् सङ्कीर्त्यमानम् मुनिभिर्महात्मभिः भक्तिः प्रवृत्तात्मरजस्तमोपहा तस्यैवम् मेऽनुरक्तस्य प्रसृतस्य हतैनसः श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ज्ञानम् गुह्यतमम् यत्तत् साक्षात् भगवतोदितम् अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलः येनैवाहम् भगवतो वासुदेवस्य वेधसः मायानुभावमविदम् येन गच्छन्ति तत्पदम् एतत् संसूचितम् ब्रह्मंस्तापत्रयचिकित्सितम् यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् आमयो यश्च भूतानाम् जायते येन सुव्रत तदेव ह्यामयम् द्रव्यम् न पुनात् चिकित्सितम् एवम् नृणाम् क्रिया योगाः सर्वे संसृतिहेतवः त एवात्मविनाशाय कल्पन्ते कल्पितः परे यदत्र क्रियते कर्म भगवत्परितोषणम् ज्ञानम् यत्तदधीनम् हि भक्तियोगसमन्वितम् कुर्माणा यत्र कर्माणि भगवत्शिक्षया सकृत् गृह्णन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च नमो भगवते तुभ्यम् वासुदेवाय धीमहि प्रदुम्नाय निरुद्धाय नमः संकर्षणाय च इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम् यजते यज्ञपुरुषम् स सम्यग् दर्शनः पुमान् इमम् स्वनिगमम् ब्रह्मन् अवेत्यमदनुष्ठितम् अदानमे ज्ञानमैश्वर्यम् स्वस्मिन् भावम् च केशवः त्वमप्यदभ्र श्रुतविश्रुतम् विभोः समाप्यते येन विदा बुभुत्सितम् आख्याहि दुःखैर्मुहुरर्दितात्मनाम् संक्लेशनिर्वाणम् सन्ति नान्यथा इति श्रीमद्भागवते महापुराणे परमहंस्यम् संहितायाम् प्रथमस्कन्धे व्यास नारद संवादे पञ्चमाध्यायः।